श्रीमान वेंकटनाथार्य कवितार्किक केसरी वेदांताचार्य भर्यो मे सन्निधत्तां सता हृतिम् नमः सावित्रे जगदेक चक्षुषे जगत् प्रसूति स्थिति नाश हेतवे त्रयी माया त्रिगुणात्मा धारिणे विरिंचि नारायण शंकरात्मने ततो युद्ध परिश्रांतं समरे चिंतया स्थितं रावणं चाग्रदो दृष्ट्वा युद्धाय समुपस्थितं तैव दैत्य समागम्य दृष्टुमभ्यागतो रणम् उभागं याब्रवीत् रामं अगस्त्यो भगवान् ऋषिः राम राम महाबाहो शृणु गुह्यं सनातनम् येन सर्वा नरीन् वत्स समरे विजयिष्यसि आदित्यहृदयं पुण्यं सर्वशत्रुविनाशनं जयावहं जपे नित्यं अक्षय्यं परमं शिवं सर्वमङ्गलमाङ्गल्यं सर्वपापप्रणाशनं चिन्ताशोकप्रशमनं आयुर्वर्धनमुत्तमं रश्मिमन्तं समुद्यन्तं देवासुरनमस्कृतं पूजयस्व विवस्वन्तं भास्करं भुवनेश्वरं सर्वदेवात्मको ह्येष तेजस्वी रश्मिभावनः एष देवात्सुरगणान् लोकान् पाति गभस्तिभिः एष ब्रह्मा स विष्णुक्ष शिवस्कन्ध प्रजापतिः महेन्द्रो धनदः कालो यमसोमो ह्यपाम्पति पितरो वसवः साद्या ह्यश्विनौ मरुतो मनुः वायुर्वह्नी प्रजा प्राण ऋतुकर्ता प्रभाकरः आदित्य सविता सूर्या गगभूषा गभस्तिमान् सुवर्णसदृशो भानोर्हिरण्यरेतो दिवाकरः हरिदश्वसहस्रार्ची सप्त सप्तिर्मरीचिमान् तिमिरोन्मदनः शम्भो स्वष्टा मार्ताण्डांशुमान् हिरण्यगर्भशिशिरः तपनो भास्करो रविः अग्निगर्भोदिते पुत्र शङ्खशिशिरनाशनः व्योमनादस्समो वेदीरिक्यजुस्सामपारकः कनवृष्टिरपां मित्रो विन्ध्यवीतिप्लवङ्गमः आतपीर्मण्डली मृत्युपिङ्गळः सर्वतापनः कविर्विश्वो महातेज रक्तः सर्वभवोद्भवः नक्षत्रग्रहताराणाम् अधिपो विश्वभावनः तेजसामपि तेजस्वी द्वारशात्मन्नमोऽस्तु ते नमः पूर्वाय गिरये पश्चिमायात्रये नमः ज्योतिर्गणानां पतये दिनातिपतये नमः जयाय जय भद्राय हरियश्वाय नमो नमः नमो नमः सहस्रांशो आदित्याय नमो नमः नम उग्राय वीराय सारंगाय नमो नमः नम पद्मप्रबोधाय मार्ताण्डाय नमो नमः ब्रह्मेशानाच्युतेशाय सूर्यायादित्यवर्चसे बाश्वते सर्वभक्षाय रौद्राय वपुषे नमः तमोग्नाय हिमग्नाय शत्रुघ्नायामिधात्मने कृतघ्नाय देवाय ज्योतिषां पतये नमः तप्तचामीकराभाय वह्नये विश्वकर्मणे नमस्तमोभिनिह्नाय रुचये लोकसाक्षिणे नाशयत्येष वैभूतं तदेव सृजति प्रभुः पायत्येष तपत्येष वर्षत्येष गभस्तिभिः एष सुप्तेषु जागर्ति भूतेषु परिनिष्ठितः एष चैवाह्निहोत्रं च फलं चैवात्रिहोत्तॄणां वेदाश्च क्रतवश्चैव क्रतूनां फलमेव च यानि कृत्यानि लोकेषु सर्व एष रविप्रभुः येन मापस्तु कृत्रेषु कान्तारेषु भयेषु च कीर्तयन् पुरुषः कश्चिन्नावसीदति राघव पूजयस्वैनमेकाग्रो देवदेवं जगत्पतिम् एतत्त्रिगुणितं जप्त्वा युद्धेषु विजयिष्यसि अस्मिन् क्षणे महाबाहो रावणं त्वं वदिष्यसि एवमुक्त्वा तदागस्त्यो जघाम जयदागतम् एतत् श्रुत्वा महातेजा नष्टशोघो भवत्तता तारयामास सुप्रीतो राघवप्रेतात्मवान् आदित्यं प्रेक्ष्य जप्त्वा तु परं हर्षमवात्मवान् त्रिदाजम्य सुचेर्भूत्वा धनुरादाय वीर्यवान् रावणं प्रेक्ष्य हृष्टात्मा युद्धाय समुभागमत् सर्वयत्नेन महतावधेतस्य धृतोऽभवत् अथ रविरवधन्निरिष्य रामं मुदितमनाः परमं प्रकृष्यमानः निचिशरपति संशयं विधित्वा सुरगणमद्यगतो वचस्वरेति अत आदित्य हृदयम् सम्पूर्णम् इति आर्षे श्रीमद् रामायणे युद्धकाण्डे आदित्य हृदय स्तोत्रम् नाम सप्तोत्तर शततमः सर्ग समाप्त। कवितार्किक सिंहाय कल्याण गुणसालिने श्रीमते वेंकटेशाय वेदांत गुरवे नमः।